इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः दिव्यानन्द झाः। अथ वार्ताः। प्रधानमन्त्री वरिष्ठः भाजपा नेता नरेन्द्र मोदी अवदत् यत् भाजपा सर्वकारेण तृतीय कार्यकालस्य आरम्भानन्तरं शतदिनाभ्यन्तरे एव भ्रष्टाचरणं विरुध्य समुचित निर्णयाः विधास्यन्ते। श्रीमोदी ह्यः राजस्थानस्य पुष्करे एकस्यां नैर्वाचनिक जनसभायाम् एवम् अभ्यभाषत। इयं जनसभा अजमेर पुष्करयोः भाजपा प्रत्याशिनां समर्थने समायोजिता आसीत्। राज्ये लोकसभा निर्वाचनार्थं श्रीमोदिनः इयं तृतीया जनसभा अवर्तत। प्रधानमन्त्री नरेन्द्र मोदी उक्तवान् यत् इदं निर्वाचनं केवलं सर्वकारस्य निर्माणार्थं नास्ति, अपितु निर्वाचनमिदं विकसित भारतस्य निर्माणार्थं वर्तते। विगतेषु पञ्चवर्षेषु भारतेन विश्वे पञ्चमार्थव्यवस्थात्वेन आत्मानं स्थापितम्। श्रीमता मोदिना ह्यः सहारनपुरे भाजपा दलस्य प्रत्याशिनोः राघव लखनपालस्य प्रदीप चौधरी इत्येतस्य च समर्थने आयोजितायां जनसभायाम् एवम् उक्तम्। अत्र अवसरे भाजपा दलस्य वरिष्ठः नेता मुख्यमंत्री योगी आदित्यनाथः अपि उपस्थितः आसीत्। आकाशवाण्याः वार्ताहरानुसारि श्रीमता मोदिना कथितं यत् यदि उद्देश्याः समीचीनाः चेत् परिणामाः अपि समीचीनाः एव भवन्ति। तेन उक्तं यत् भाजपा सर्वकारः भेदभावं विना कार्यं करोति। श्रीमोदिना प्रोदीरितं यत् विगत दशवर्षेषु सर्वकारेण कृषकाणां विकासार्थं सततं कार्यं कृतमस्ति। श्रीमता योगिना आदित्यनाथेन कथितं यत् वयं भाग्यशालिनः स्मः यतः अस्माभिः अभिनवं भारतं दृष्टं यदि विश्वगुरुत्वेन ज्ञायते। राष्ट्रियान्वेषणाभिकरणेन द्वाविंशत्यधिकद्विसहस्रतमवर्षस्य दिसम्बर मासे पश्चिमबंगालस्य भूपतिनगरे घटिते विस्फोटप्रकरणे द्वौ मुख्य षड्यन्त्रकारिणौ निगडितौ। एतस्मिन् विस्फोटे त्रयः जनाः मारिताः आसन्। अनेन अभिकरणेन ह्यः कथितं यत् एतौ आतंकवादिनौ राज्यस्य पूर्वीय मेदिनीपुर जनपदे जनसम्मर्दयुतात् क्षेत्रात् गृहीतौ। गृहीतापराधिनोः अभिज्ञानं बलैचरणमैनी मनोव्रत जनारूपेण जातम्। उभौ अपि आरोपिणौ आतंकस्य प्रसारे विस्फोट निर्माण कार्ये च संलग्नौ आस्ताम्। प्रिया श्रोतारः, संस्कृत जगता सम्बद्धैः विभिन्नैः क्रियाकलापैः सम्बलितस्य संस्कृत साप्ताहिकीति विशिष्ट कार्यक्रमस्य प्रसारणम् आकाशवाण्याः एफएम गोल्ड प्रवाहिकातः अद्य मध्याह्ने 20:30 भविष्यति। कृपया शृण्वन्तु। दिल्ली न्यायालयेन मद्यनीति प्रवञ्चनायां धनशोधन प्रकरणे आम आदमी पार्टीति दलस्य नेता दिल्ल्याः पूर्वोपमुख्यमन्त्री मनीष सिसोदिया इत्येतस्य निगडनावधिः अप्रैल मासस्य 18 दिनांकं यावत् वर्धितः। निगडनावधेः समाप्तो राउज एवेन्यू न्यायालयस्य विशेष न्यायाधीशेन कावेरी बाविजा इत्यनया तस्य निगडनावधिः समेधितः। प्रकरणेऽस्मिन् सः आरोपी अपनेता संजय सिंहः अपि कार्याचरणावधौ न्यायालये उपस्थितः आसीत्। अत्र प्रकरणे संजय सिंहः सद्यः एव सर्वोच्च न्यायालयेन विमोचितः। राष्ट्रियान्वेषणाभिकरणेन प्रवर्तन निदेशालयेन च आम आदमी पार्टीति दलस्य एते नेतारः मद्यनीति प्रवञ्चनायाम् अनियमिततायाम् उद्दिश्य आरोपिताः। आईपीएल क्रिकेट स्पर्धा मालिकायां गतरात्रौ जयपुरे सवाई मानसिंह क्रीडांगणे आयोजिते द्वन्द्वे राजस्थान रॉयल्स दलेन रॉयल चैलेंजर्स बेंगलुरु दलं 6 पराजितम्। अद्यतने द्वन्द्वद्वये प्रथमं द्वन्द्वं मुंबई इंडियंस दिल्ली कैपिटल्स दलयोः मध्ये भविष्यति।